सङ्कल्पकल्पलतिकाम् अवधिं क्षमायाः स्वेच्छावरहमहिषीं सुलभानुकम्पां विश्वस्य मातरम् अकिञ्चनकामधेनु विश्वं भराम् अशरणः शरणौ प्रपद्ये त्वं व्याहृतिः प्रथमतः प्रणवः प्रियं ते संवेदयति अखिलमन्त्रगणः तमेव इत्थं प्रतीत विभवाम् इतरेषु इदानीं स्तोतुं यदा वदवने क इव अर्हति त्वा नित्यं हिताहित विपर्ययबद्धभावे तद्वीक्षणयेकविनिवर्त्य बहुव्यपाये मुग्धाक्षरैः अखिलधारिणि मोदमाना मा धियौ मयि वर्तयेथाः सङ्कल्प किङ्करचराचरचक्रवालौ सर्वातिशायिनौ अनन्तशयस्य पुंसः भूमानम् आत्मविभवैः पुनरुक्तयन्ति वाचाम् अभूमिरपि भूमिः असि त्वमेका तृणावधिविहारपरिच्छदं ते विश्वं चराचरतया व्यतिभिद्यमानम् अम्बत्वदाश्रिततया परिपोषयन्ति विश्वं भरस्य दयितासि तदेकनामा सर्वं सहेति अवनिरिति अचलेति मातः विश्वं भरेति विपुलेति वसुंधरेति अन्यानि च अन्य विमुखानि अभिधानवृत्त्या नामानि अमूनि कथयन्ति तव क्षिपन् प्रसविता सुमनोगणानां प्रच्छाय शीतलतलः प्रदिशन् फलानि त्वत्सङ्गमाद्भवति माधवी लब्धपोषः शाकाशतैः अधिगतो हरिचन्दनोऽसौ स्मेरेण वर्धितरसस्य मुखे दुनाते निष्पन्दतां विजहतो निजया प्रकृत्या विश्रान्ति भूमिरसि तत्त्वतरङ्गपङ्क्तेः वेलेव विष्णुजलधेः अपृथक् भवन् स्वाभाविके वसुमति श्रुतिभिः विभाव्ये पत्युर्महिम्नि भवतीं प्रतिपन्नवासाहं शङ्खे विमानवहनप्रतिमा समानाः स्तम्भेरम प्रभृतयोऽपि वहन्ति सत्त्वाः सम्भावयन् मधुरिपुः प्रणयानुरोधात् वक्षस्थलेन वरुणालयराजकन्या विश्वंभरे बहुमुखप्रतिपन्नभोगः शेषात्मना तु भवतीं शिरसा दधात् वराहदयिते कृतिनः क्षितीन्द्राः संक्रन्दनः तदितरेऽपि दिशामधीशाः आमोदयन्ति भुवनानि अलिकाश्रितानाम् अम्ब त्वदङ्ग्रिरजसां परिणामभेदैः भूतेषु य यत्त्वदभिमान विशेष पात्रं पोषं तदेव भजति इति विभावयन्तः भूतं प्रभूतगुणपञ्चकमाध्यमेव प्रायो निदर्शनतया प्रतिपादयन्ति कान्तः तवैष करुणाजलधिः प्रजाना आज्ञातिलङ्घनवशात् उपजातरोषः आह्नाय विश्वजननी क्षमया भवत्या सर्वावगाहनसहं उपयात्यवस्था आश्वासनाय जगतां पुरुषे परस्मिन् आपन्नरक्षणदशामभिनेतुकामे अन्तर्हित इतरगुणात् अबलास्वभावात् औदन्वते पयसि मज्जनौ अभ्यनैषीः पुषा पुरुषोत्तमेन प्रीतेन भोगि सदने समुदीक्षितायाः पादाहताः प्रणयवारिधयः तव सन् उद्वाकमङ्गलविधेः उचिता मृदङ्गाः व्योमातिलङ्घिनि विभोः प्रणयम्बुराशौ वेशन्तलेश इव मातुमशक्यमूर्तेः सद्यः समुद्रवसने सरसैरकार्षीः आनन्दसागरौ अपारमपाङ्गपातैः
दंष्ट्राविदारितमतासुरशोणितङ्गैः अङ्गैः प्रियस्तव दधे परिरम्भलीला सा ते पयोधिजलकेणि समुत्थिताय सैरं
चन्द्रिकेव विदधे नवमङ्गरागम् अन्योन्यसम्बलन जृम्भिततूर्यघोषैः संवर्तसिन्धुसलिलैः विहिताभिषेक एका तपत्रयसी विश्वमिदं गुणैः स्वैः अद्यास्य भर्तुः अधिकोन्नतम् अंसपीठम् भर्तुः तमालरुचिरे भुजमध्यभागे पर्यायमौक्तिकवती पृषतैः पयोधेः तापानुबन्धशमनि जगतां त्रयाणां तारापते स्फुरसीतारहिता निषेव आसक्तवासवशरासनपल्लवैः त्वां संवृद्धये शुभतटिद्गुणजालरौम्यैः देवेश दिव्यमहिषी धृतसिन्धुतोयैः जीमूत रत्नकलशैः अभिषिञ्चति जौः आविर्मदैः अमरदन्तिभिः उह्यमाना रत्नाकरेण रुचिरां रचनागुणेन मातस्त्रिलोकजननीं वनमालिनीं त्वां मायावराहमहिषीम् अवयन्ति सन्तः निष्कण्टकप्रशमयोगनिषेवणीय छायाविशेष परिभूतसमस्ततापः स्वर्गापवर्गसरणीं भवति मुशन्ति स्वच्छन्दसूकरवधूम् अवधूतपङ्क गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां शैलस्तनिं तरलनिर्झरलम्बहारां श्यामयां स्वतः ತ್ರಿಯುಗಸೂಕರಗೇಹಿನಿ ತ್ವಂ ವ್ಯಕ್ತಿಂ ಸಮುದ್ರವಸನಾಂ ಉಭಯಿಂ ಬಿಭರ್ಷಿ ನಿಸ್ಸಂಶಯೈಹಿ ನಿಗಮಸಿ ಮನಿ ವಿಷ್ಣುಪತ್ರಿ ಪ್ರಖ್ಯಾಪಿತಂ ಭೃಗುಮುಖೈರ್ಮುನಿಭಿಃ ಪ್ರತೀತೈಃ ಪಶ್ಯಂತಿ ಅನನ್ಯ ಪರಧೀ ರಸ ಸಂಸ್ತುತೇನ ಸಂತಃ ಸಮಾಧಿ ನಯನೇನ ಸಂಚೋದಿತಾ ಕರುಣಯ ಚತುರಃ ಪುಮರ್ಥಾನಿ ವ್ಯಾತನ್ವತಿ ವಿವಿಧ ಮಂತ್ರ ಗಣೋಪಗೀತಾ ಸಂಚಿಂತ್ಯಸೆ ವಸುಮತಿ ಸ್ಥಿರ ಭಕ್ತಿ ಬಂಧೈಃ ಅಂತರ್ಬಹಿಶ್ಚ ಬಹುಧಾ ಪ್ರಣಿಧಾನ ದಕ್ಷೈಃ ಕ್ರೀಡಾ ಗೃಹೀತ ಕಮಾನಾದಿ ವಿಶೇಷ ಚಿಹ್ನ ಸುಧೇ ಸಭೂತಿ ದೌರ್ಗದ್ಯ ದುರ್ವಿಷ ವಿನಾಶ ಸುಧಾ ನದೀಂ ತ್ವಾಂ ಸಂಚಿಂತಯನ್ ಹಿ ಲಭತೆ ಧನದಾಯಾಧಿಕಾಯ ಕಲ್ಮಷ ಪರಂಪರಿತಾದಮರ್ಷಾತ್ ಉತ್ತಂಸಿತೇನ ಹರಿಂ ಮಂಜಲಿನಾಪ್ಯದೃಶ್ಯಂ ಆಕಸ್ಮಿಕಃ ಅಯಂ ಅಧಿಗಂ ಯಯತಿ ಪ್ರಜಾನಾ ಅಂಬತ್ವದೀಯ ಕರುಣಾ ಪರಿಣಾಮಯೇವ ಪ್ರತ್ಯೇಕಮಬ್ದನಿಯುತೈರಪಿ ದುರ್ವ್ಯಪೋಹಾತಿ ಪ್ರಾಪ್ತೇ ವಿಪಾಕ ಸಮಯೇ ಜನಿತಾನುತಾಪಾತಿ ನಿತ್ಯಾಪರಾಧ ನಿವಹಚ್ಚಕಿತಸ್ಯ ಜಂತೋ ಗಂತುಂ ಮುಕುಂದ ಚರಣೌ ಶರಣೌ ಕ್ಷಮೇ ತ್ವಂ
त्राणाभिसन्धि शुभगेऽपि सदा मुकुन्दे संसारतन्त्रवहनेन विलम्बमाने रक्षाविधौ तनुवृताम् अनघानुकम्पया मातः स्वयं वितनुषे महतीमपेक्षा धर्मद्रुहौ सकल दुष्कृति सार्वभौमौ आत्मानभिज्ञम् अनुतापलवोज्झितौ माम् वैतगानसूकरपतेः चरणारविन्दे सर्वं सहेननु समर्पयितु क्षमा त्रयीं निरवधिं भवती दयार्द्राः संसार धर्मजनितां सपदि क्षिपन्तः मातः भजन्तु मधुरामृत वर्षमैत्रीं मायावराहदयिते मयि ते कटाक्षाः दक्षिणपाणि पङ्कजपुटे विन्यस्तपादाम्बुज वामं पन्नग सार्वभौम सदृशं पर्यङ्कयन्ते भुजं पोत्रस्पर्शलसत्कपोलफलक पुल्लारविन्दे क्षणाय सा मे पुष्यतु मङ्गलानि अनुदिनम् सर्वाणि सर्वौ सह अस्येषा न जगत इति या श्रूयते विष्णुपत्नी तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या श्रद्धाभक्ति प्रचय गुरुणा चेतसा संस्तुवानः यद्यत्कामः सपदि लभते तत्र तत्र प्रतिष्ठा कवितार्किकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः।